इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। आर्थिक व्यापार स्थिरतां सुनिश्चेतुम्, ऊर्जा सुरक्षां सुनिश्चेतुम्, नागरिकाणां हितानां रक्षणाय उद्योग आपूर्ति श्रृंखलानां निर्माणं च पश्चिम एशियायाः स्थितौ सर्वकारस्य एताः सर्वोच्च प्राथमिकताः सन्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अवधानं प्रदत्तम्। पश्चिम एशिया द्वन्द्वेन भारते तस्य संभाव्य प्रभावस्य च दृष्ट्या देशस्य सज्जतां समीक्षितुं राज्यानां केन्द्रशासित प्रदेशानां च मुख्यमन्त्रिभिः उपराज्यपालैः च सह ह्यः सायंकाले आभासीय माध्यमेन उच्चस्तरीय सभायाः अध्यक्षतां कुर्वन् श्रीमोदी इदमुक्तवान्। सभायां प्रधानमन्त्रिणा केन्द्रराज्ययोः मध्ये जागरूकतायाः, अग्रिमयोजनायाः, अविरामसमन्वयस्य च आवश्यकतायाः उपरि बलं प्रदत्तम्। श्रीमोदी दृढविश्वासं प्रकटितवान् यत् टीम इण्डिया रूपेण मिलित्वा कार्यं कुर्वन् देशः उदयोन्मुखानां समाह्वानानां सफलतया निवारणं करिष्यति। सः उल्लिखितवान् यत् परिस्थितयः परिवर्तनशीलाः एव सन्ति, तथा च निरन्तरं निरीक्षणस्य द्रुतस्य अनुकूलप्रक्रियाणां च आवश्यकताः वर्तन्ते। श्रीमोदी आपूर्तिशृङ्खलानां सुकरप्रक्रियां सुनिश्चेतुं सञ्चयस्य लाभार्जनस्य च विरुद्धं कठोरान् उपायान् स्वीकर्तुं च राष्ट्रेभ्यः आदिष्टवान्। सः कृषिक्षेत्रे अग्रिमनियोजनस्य महत्त्वमपि अधोरेखितवान्। विशेषतः ग्रैष्मिक खरीफ कालात् पूर्वं पर्याप्त उर्वरक उपलब्धतां सुनिश्चेतुम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य उत्तरप्रदेशस्य जेवरनगरे नोएडा अन्ताराष्ट्रिय विमानस्थानकस्य प्रथमचरणस्य उद्घाटनं करिष्यति। विमानस्थानकं प्रायः 2,10,000 कोटिरूप्यकाणां व्ययेन विकसितमस्ति। अस्य विमानस्थानकस्य उद्घाटनं वैश्विक विमानयान केन्द्रं भवितुं भारतस्य यात्रायां महत्वपूर्णं सोपानं निर्दिशति। भाजपेति दलस्य वरिष्ठः नेता तथा गृहमन्त्री अमितशाहः अवदत् यत् मतदातृसूच्यां विशेषगहन संशोधनस्य SIR इत्यस्य उद्देश्यं कपटाधारेण मतदातृसूच्यां समाविष्टानां नामानि निष्कासयितुं भवति। गतरात्रौ नवदिल्ल्यां निजी वार्तावाहिन्याः सम्मेलने भाषमाणः श्रीशाहः अवदत् यत् अस्य अभ्यासस्य उद्देश्यम् अस्ति मतदातृसूच्याः अखण्डतायाः यथार्थतायाः च संरक्षणम्। सः अवदत् यत् SIR प्रक्रिया तमिलनाडुराज्येन, केरलं राज्येन च सह अनेकेषु राज्येषु समाह्वानानां विनैव कृतास्ति। सः अवोचत् यत् आक्षेपाः मुख्यतया पश्चिमबङ्गप्रदेशात् आगताः सन्ति। अन्येषु राज्येषु अस्य अभ्यासस्य सुगमतया कार्यान्वयनं दृष्टम्। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः महाराष्ट्रस्य कृषिमन्त्रिणा दत्तात्रेय विठोबा भरणे वर्येण सह नवदिल्ल्यां मिलितवान्। उपवेशने श्रीचौहानः कृषकाणां समर्थनाय कृषि आधारित संरचनाः निर्मातुं च केन्द्रस्य प्रतिबद्धतां पुनः दृढीकृतवान्। तटीय प्रदेशेषु अकालवृष्ट्या सस्यानां क्षतिम् अवलम्ब्य श्रीचौहानः अधिकारिभ्यः निर्देशं प्रदत्तवान् यत् प्रधानमन्त्री फसल बीमा योजनायाः अन्तर्गतं प्रभाविताः कृषकाः अधिकं लाभं प्राप्नुयुः इति सुनिश्चितं कर्तव्यम्। अन्त्यक्रीडावार्तायाम्, IPL इति इण्डियन प्रीमियर लीग इत्यस्य ऊनविंशतितमं संस्करणम् अद्य सायंकाले बेंगलुरुनगरस्य एम चिन्नास्वामी क्रीडांगणे आरभ्यते, यत्र गतविजेता रॉयल चैलेंजर्स बेंगलुरुदलं सनराइजर्स हैदराबाद दलं सम्मुखीकरिष्यति। एषा स्पर्धा सायं 7:30 आरभ्यते। स्पर्धैषा मई मासस्य 31 दिनांकपर्यन्तं च प्रचलिष्यति इति वार्ताः।